एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रतिनिधि सभायाः विपुलस्य राजनीतिक दलद्वयस्य सहकारेण नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलिना अद्य नूतन प्रधानमन्त्रिणो रूपेण देशस्य कार्यकारिणः प्रधानमन्त्री पदस्य दायित्वं निरूह्यते। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन प्रतिनिधि सभायाः शुक्रवासरस्य उपवेशे प्रस्तुतस्य विश्वास मतग्रहणस्य प्रस्तावस्य अपारिति भवनानन्तरं नूतन सर्वकारस्य संगठनस्य प्रक्रिया प्रारब्धास्ति। कांग्रेस नेकपा एमाले दलयोर्मध्ये अशैव आषाढस्य सप्तदशी दिवसे धृतायाः सहमतेः आधारेण नेकपा एमाले दलस्य अध्यक्षः केपी शर्मा ओली प्रधानमन्त्री पदे नियोज्यमानो वर्तते। राष्ट्रपतिना रामचन्द्र पौडेलेन नेपालस्य संविधानस्य षट्सप्ततितम्या धारायाः द्वितीय उपधारायाः अनुसारेण प्रतिनिधि सभायाः द्वयोः द्वयाधिकानां वा दलानां समर्थनेन प्रधानमन्त्री पदस्य कृते स्वोत्तम प्रस्तोतुम् अद्य सायं पञ्चवादन पारेन्तिकः समयः निर्धारितो वर्तते। राष्ट्रपति कार्यालयात् नूतन प्रधानमन्त्री पदे नियुक्ते सत्वस्य प्रस्तुते सूचनायाः प्रकाशनस्य अनुपदमेव दलद्वयेन ओलिनः प्रधानमन्त्री पदे नियुक्ते सत्वं प्रस्तुतमस्ति। चतुर्थवारं प्रधानमन्त्री पदे एमाले दलस्य अध्यक्षस्य ओलिनः राष्ट्रपतिना अद्य नियुक्ति विधास्यते इति राष्ट्रपतेः संचार परामर्शदाता किरण पोखरेलः असूचयत्। राष्ट्रपतिना पौडेलेन प्रधानमन्त्री पदे अध्यक्षस्य ओलिनः नियुक्तेः पश्चात् श्व यावत् पदगोपनीयतायो शपथ ग्रहणाय पूर्व कार्यम् वर्तते इति दलद्वयस्य नेतारो भाषन्ते। एतत्पूर्वम् अध्यक्ष ओली द्वासप्तत्युत्तर द्विसहस्रतमे चतुस्सप्तत्युत्तर द्विसहस्रतमे अष्टासप्तत्युत्तर द्विसहस्रतमे च विक्रमवर्षेष् वारत्रयम् प्रधानमन्त्री पदे आसीन आसीत्। नेपाली कांग्रेस दलेन सर्वकारे दलस्य पक्षतः सहभागिनां मन्त्रीणां चयनं समावेशितां प्रादेशिक सन्तुलनं चाधृत्य विधातुं निर्णीतमस्ति। सानेपा वर्तिनी दल केन्द्रीय कार्यालय ह्य उपविष्टेन केन्द्रीय कार्य सम्पादन समितेः उपवेशेन प्रादेशिक सन्तुलनस्य समावेशितायाश्च आधारेण दलस्य पक्षतः सर्वकारे सहभागी मन्त्रीणां नामानि प्रचेतुं निर्णीतमस्ति इति दल प्रवक्ता डाक्टर प्रकाश शरण महत अज्ञापयत्। उपवेशेन देशस्य विभिन्नेष् भागेष् जातानां प्राकृतिक विपदां घटनाभिः सम्भूतां जनधनयोः क्षतिं प्रति दुःखम् अभिव्यज्य विलुप्तानां जनानां तीव्रतया अन्वेषणाय संकटापन्नानां नागरिकानां सुरक्षित स्थानेषु प्रापणाय च सर्वकारस्य ध्यानाकर्षणं विहितमस्ति। उपवेशेन मार्ग दुर्घटनानां दुःखदायिन्याः अवस्थायाः अन्तार्थम् आवश्यकम् अध्ययनाय विधेर्व्यवस्थां विधातुं सर्वकारस्य ध्यानमाकृष्टमस्ति। उपवेशस्य अनन्तरं संचारकर्मिभिस्सह प्रवक्ता डाक्टर महत सर्वकारस्य स्थिरतां सुनिश्चित्य देशं गतिशीलं विधातुम् अन्यानि राजनीतिक दलानि अपि सहमतौ आनीय अग्रेवर्धनेन संविधान संशोधनेन च सहिताः विषयाः निष्कर्षं प्राप्तुं शक्यते इति अभाषत। नेकपा एमाले दलाध्यक्षस्य केपी शर्मा ओलिनः नेतृत्वे संघटिष्यमाणे सर्वकारे लोसपा नाम्नो लोकतान्त्रिक समाजवादी दलेन नेपालेन सहभागितायै निर्णीतमस्ति। बवरमहल वर्तिनी दल कार्यालये ह्य उपविष्टेन लोसपा संसदीय दलस्य उपवेशेन सर्वकारे सहभागिनां मन्त्रीणां प्रचयनस्य दायित्वम् अध्यक्षाय महन्त ठाकुराय दत्तमस्तीति दलस्य सचेतक पदीयो रामप्रकाश चौधरी अज्ञापयत्। उपवेशेन भूस्खलन जल विप्लव जलनिमग्नताभि प्रभावितेभ्यो जनेभ्यः तत्कालं प्रभावकारि सहयोगं विधातुं सर्वकारः राजनीतिक दलानि च अनुरुद्धानि सन्ति। प्रतिनिधि सभायाः उपवेशः श्वः सोमवासरे वस्ता। अद्य दिवात्रिवादनाय आहूतः प्रतिनिधि सभायाः उपवेशः विशेष कारणेन सोमवासरे दिवा एकवादनाय समयान्तरितोऽस्ति इति संघीय संसद सचिवालयेन ह्य सूचनां प्रकाश्य ज्ञापितमस्ति। एवमेव अद्य सपादैकवादनाय आहूतो राष्ट्रिय सभायाः उपवेशोऽपि सोमवासरे पूर्वाह्ने सार्धैकादशवादने वस्तीति संसद सचिवालयस्य महासचिवेन पद्मप्रसाद पाण्डेन प्रकाशितायां सूचनायां ज्ञापितं वर्तते। त्रिभिरेव दलहि सुदूरपश्चिम प्रदेशस्य मुख्यमन्त्री दीर्घबहादुर सोडारी त्यागपत्रं प्रदाय नूतन सर्वकारस्य संघटनाय मार्ग प्रशस्ति कर्तुम् अनुरूद्धो वर्तते। धनगढ़ी स्थाने ह्य संयुक्त पत्रकार सम्मेलनम् आयोज्य नेपाली कांग्रेस नेकपा एमाले नागरिकोन्मुक्ति दलहि मुख्यमन्त्रिणा सोडारी इत्यनेन तत्कालं पदात्यागपत्रं प्रदेय मिति धारणा सार्वजनिकृता वर्तते। मध्य प्रदेशस्य प्रदेशसभायाः उपवेशन एतद्विक्रमवर्षीयम् आर्थिक विधेयकं सर्वसम्मत्या पारित कृतमस्ति। प्रदेशसभायाः ह्यस्तनोपवेशे मुख्यमन्त्रिणा सतीशकुमार सिंहेन प्रस्तुतम् एतद्विक्रमवर्षीयम् आर्थिक विधेयकं सर्वसम्मत्या पारित कृतम् वर्तते। तत्पूर्वम् उपवेशे आर्थिक विधेयकस्य विमर्शनस्य क्रमे उत्थापितान् प्रश्नान् उत्तरयन् मुख्यमन्त्री सिंहः विगतकालिक सर्वकारेण निर्धारितस्य करस्य सीम्ने नैरन्तर्यं प्रदातुम् मूल्ये केनापि प्रकारेण परिवर्तनं न विहितमिति असूचयत्। मुख्यमन्त्री सिंह कृषिक्षेत्रस्य विकासं विधाय आय वृद्धिं कृत्वा च देशं आत्मनिर्भरं विधातुं प्रदेश सर्वकारः प्रतिबद्धो अस्तीति अभाषत। नेकपा एमाले दलस्य महासचिवः शंकर पोखरेलः भाषते राजनीतिक दलेषु दुर्बलेषु शत्रु लोकतन्त्र मानवाधिकारश्च सुदृढे न भवतः। ललितपुरस्य खोकनास्थाने ह्य आयोजिते कार्यक्रमे महासचिवः पोखरेलः राजनीतिक दलेषु दुर्बलेषु शत्रु लोकतन्त्र मानवाधिकारः जनाधिकारश्च सुनिश्चिताः भवितुं न शक्नुवन्ति इति अवोचत्। गत शुक्रवासरे भरतपुर महानगरपालिकायाः 29 ओडा क्षेत्रस्य सिमलताल स्थाने भूस्खलनेन सह त्रिशूली नद्यां निपत्य विलुप्तस्य बसयानद्वयस्य तत्र आरूढानां यात्रिणां च अप्राप्तेः पश्चात् ड्रोन सोनार नामनि समीपस्थ चित्रग्राहकोपकरणे प्रयुज्य अन्वेषण कार्यं विधीयमानं वर्तते। अन्वेषणकार्य नवजलप्लव सशस्त्र प्रहरिणश्च संलग्नः वर्तन्ते। वसयान दुर्घटनायां विलुप्तेषु जनेषु पुरूषद्वयस्य शवौ प्राप्तौ वर्तेते। शवौ गैडाकोट नगरपालिकायाः 7 ओडा क्षेत्रस्य गैरीस्थाने नारायणी नद्याः द्वीपभागे प्राप्तौ स्तः। एतत्पूर्वं ह्य प्रातः भरतपुर महानगरपालिकायाः 28 ओडा क्षेत्रे नारायणी नद्याः तटे प्राप्त शवः वशयात्रिणः अस्तीति पुष्टिभूतमासीत्। चितवन जनपद प्रहरी कार्यालयस्य प्रवक्ता प्रहरी नायब उपरीक्षकः भेषराज रिजालः शवौसौ त्रिशूली नद्यां विलुप्तस्य गणपति डिलक्स बसयानस्य भारतीय नागरिकस्य ऋषिपल शाहस्य अस्तीति पुष्टिभूतमस्तीति असूचयत्। शाह नेपाले कार्यं कृत्वा निवसन आसीदिति तदीयाग्रजः सत्यपाल शाह असूचयत्। देशस्य बहुभाषिक सम्पादनस्य नीतिरनुरूपं सर्वासां भाषाणां संरक्षणाय संवर्धनाय च रेडियो नेपालेन अद्यतः राजवंशी भाषायां वैतडी भाषायां च समाचारस्य प्रसारणं प्रारभ्यमाणं वर्तते। रेडियो नेपालेन विराटनगरवर्तिनः तारिणी प्रसाद कोइराला स्मृति संचार ग्रामात् पादोन द्विवादने राजवंशी भाषायां दीपायलवर्तिनः सुदूरपश्चिम प्रादेशिक कार्यालयात् दिवासपाद त्रिवादने वैतडी भाषायां च समाचारस्य प्रसारणं प्रारभ्यमाणमस्तीति रेडियो नेपालस्य कार्यकारी निर्देशकः बुद्धिबहादुर केसी असूचयत्। राजवंशी वैतडी भाषयोः समाचार प्रसारणेन सहैव रेडियो नेपालात् चतुर्विंशत्यां भाषा सुसमाचार प्रसारणं भवति। त्रयोविंशति भाषासु च कार्यक्रमाः सञ्चाल्यन्ते।